सर्वेभ्यो नमस्कारः. स्पोकन् संस्कृत् इति मङ्गलवासरस्य वर्गः आरम्भं कुर्मः. गतसप्ताहे वयं यदि तर्हि तस्य विषये किञ्चित् उक्तवन्तः. अपि च एव इति अपि तत्रापि किञ्चित् अभ्यासः कृतवन्तः. तत्र अपि इति विषये तत्र अहं वाक्यद्वयं वक्तुम् इच्छामि. अपि इति अपि इत्युक्ते तत्र वयम् उदाहरणानि दृष्टवन्तः, किन्तु अन्यद्वयम् उदाहरणं वक्तुम् इच्छामि. केवलं बालाः न युवकाः अपि धाविष्यन्ति. महाभारते केवलं कथाः न तत्त्वचिन्तनम् अपि अस्ति. तादृश अत्र अपि इत्युक्ते किम् इति वयम् अवगन्तुं शक्नुमः. अन्य उदाहरणमपि वदामि. तत्र अपि अस्ति, अपि न अपि अस्ति, नकारः अपि अस्ति. तत् श्रुत्वा अपि ब्रह्म कश्चित् न जानाति. श्रुत्वा अपि ब्रह्म कश्चित् न जानाति इति तत्र तादृश अर्थ अपि अपि शब्दस्य भवति. तदनन्तरं किं वक्तुम् इष्टवन्तः, अत्र एव इति अर्थे एकः प्रसिद्धः श्लोकः अस्ति. तत् एकवारम् अहं पठामि. एव इति तत् गतसप्ताहे कृतवन्तः. तत्र प्रसिद्धः श्लोकः सर्वे जानन्ति इति मन्ये. सर्वोपनिषदो गावो धोक्ता गोपालनन्दनः पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् इति श्लोकं सर्वे जानन्ति इति मन्ये. प्रसिद्धश्लोकः अस्ति. तत्र अर्थः कः इत्युक्ते उपनिषदः एव गावः, श्रीकृष्णः एव दोग्धा, पार्थः एव वत्स, बुद्धिमन्तः एव भोक्तारः इति तत्र अर्थः अत्र भवति. एव शब्दः एव अत्र उपयोगकरः भवति अस्मिन् श्लोकस्य अर्थविषये. अस्तु, एतत् केवलम् उदाहरणम्. अत्र वयं यदि तर्हि गतवर्गे कृतवन्तः गृहपाठरूपे यदि तर्हि तस्य पञ्चवाक्यानि लिखतु इति आसीत्. कः वक्तुं प्रथमं वक्तुम् इच्छति?
अहं वदामि.
नरेश् महोदय, अस्तु वदतु महोदय.
प्रथम, यदि भवन्तौ गच्छतः तर्हि अहमपि गन्तुं शक्नोमि. यदि विद्युत् अस्ति तर्हि पाचनं कर्तुं शक्नोमि.
कुकिङ्ग् इति पचनम् इति चिन्तितवान्. पाचनम् अपि अस्ति वा?
पाकं कर्तुं शक्नुमः.
पाकम् अस्ति, पाकम् इति अस्ति. हा, पाकम् इति कर्तुं वक्तुं शक्नुमः महोदय.
यदि हिमपात् भवति तर्हि विद्यालयं मा गच्छतु. यदि भवन्तः उपविशन्ति तर्हि गुरुः पाठनम् आरभ्यते. यदि पुस्तकानि सन्ति तर्हि वयं गृहकार्यं कुर्मः.
गृहकार्यं कुर्मः. समीचीनं महोदय, समीचीनं, धन्यवादः. अन्य कोऽपि अन्य कः वक्तुम् इच्छति?
अहं वदामि. राजेश.
राजेश महोदय, अस्तु. तदनन्तरं रमाबाय् भगिनी वदतु.
यदि मार्जारः अस्ति तर्हि मूषकः न आगच्छति. यदि वयं व्यायामं कुर्मः तर्हि अस्माकम् आरोग्यं वर्धिष्यन्ते.
आरोग्यं वा आरोग्यः वा कोऽपि जानाति वा तत्र? आरोग्यम् एव सम्यक् वा तत्र नपुंसकलिङ्गशब्दः वा आरोग्यं प्रायशः अस्तु समीचीनमिति मन्ये महोदय
यदि अद्य वृष्टिः भवति तर्हि अहं कार्यालयं न गच्छामि यदि पञ्चवाक्यानि लिखामि तर्हि वर्गे पठामि यदि कार्याने इन्धनं नास्ति तर्हि तं न चलति चलामि
तत्र कार्याने
इन्धनं नास्ति
इन्धनं नास्ति अस्तु
तर्हि तं न चलामि तं न चलति
कार्यानम् इति अस्ति महोदय तत्र तत् कार्यानम् इति भवति अतः तत् कार्यानं न चलति इति अथवा न चलति अथवा न चालयामि चालयामि इत्युक्ते अन्यत् चलितुं कर्तुं कुर्मः चेत् स्वयं भवान् स्वयं न चलति कार्यानं चालयति अहं पठामि अहं पाठयामि तत्र भेदः अस्ति खलु तादृशभेदः चलति चलामि अपि चालयामि कार्यानं चालयामि बहु समीचीनमस्ति महोदय अस्तु रमाबाई भगिनी वदति वा
इदानीम् अस्तु महोदय यदि वृष्टिः भवति तर्हि सस्यानि सम्यक् वर्धते
सस्यानि
वर्धते
सस्यानि इति बहुवचनमस्ति खलु भगिनि
सस्यानि
अतः क्रियापदं नामपदस्य वचनं क्रियापदस्य अपि वचनं तदेव भवतु सस्यानि बहुवचने अस्ति चेत्
यदि विरामः भवति तर्हि बालकः सन्तोषेण क्रीडति यदि संस्कृतस्य पोषणं सम्यक् भवति तर्हि संस्कृतिः अपि सम्यक् वर्तते यदि वयं भगवन्तं सर्वदा स्मरणं कुर्वन्ति तर्हि अस्माकम् आत्मशुद्धिः भवति
तत्र सर्वदा तदनन्तरं किं भगिनि
स्मरणं
भगवन्तं
सर्वदा स्मरणं कुर्वन्ति तर्हि
कुर्वन्ति इति अस्ति चेत् तत्र चिन्ता मास्तु भगिनि वयं
तर्हि अस्माकम् आत्मशुद्धिः भवति अथवा भवन्ति वा आत्मशुद्धिः
आत्मशुद्धिः एकवचने अस्ति
यदि वयं सम्यक् पठामः तर्हि भवान् सन्तुष्टः भवति
धन्यवादः भगिनि अस्तु
यदि विद्युत् नास्ति तर्हि मह्यं संस्कृतवर्गम् आगन्तुं न शक्यते
अस्तु न शक्यते
तदेव
धन्यवादः मया इति प्रायशः अस्ति भगिनि मह्यं न मया मह्यम् इति चतुर्थी मह्यं ददातु मया इति मया न संस्कृतकक्ष्याम् आगन्तुं न शक्यते समीचीनं भगिनि समीचीनं धन्यवादः अन्य कोऽपि वक्तुम् इच्छति वा
नमस्ते महोदय
नमस्कारः भगिनि, वंशीसुधा भगिनि. तदनन्तरं न भवती वदतु, तदनन्तरं वेणुगोपाल् महोदय वदतु, तदनन्तरं रघुपति आचार्य महोदय वदतु.
आम् महोदय, यदि वृष्टिः न भवति तर्हि अहं विपणीं गमिष्यामि. यदि परीक्षा अस्ति तर्हि छात्रः प्रातः शीघ्रम् उत्तिष्ठति. यदि वयं संस्कृतकक्षां शृण्मः तर्हि वयं संस्कृतं सुष्ठु वदिष्यामः.
तत्र प्रातः प्रातःकाले अथवा किम् अस्ति तत्र?
प्रातः यदि परीक्षा अस्ति तर्हि छात्रः प्रातः शीघ्रम् उत्तिष्ठति.
प्रायशः भगिनि, नो चेत् तत्र प्रथमाविभक्तिपदद्वयं तत्र भवति खलु.
आम् आम् महोदय, प्रातःकाले इति
प्रातःकाले. प्रातःकाले
आम् आम्. तृतीयवाक्यमस्ति, यदि वयं संस्कृतकक्षां शृण्मः तर्हि वयं संस्कृतं सुष्ठु वदिष्यामः. यदि आसन्दः अस्ति तर्हि वृद्धः उपविशति. यदि परोपकारभावना मनसि अस्ति तर्हि वयं दीनजनाः सहायं करिष्यामः.
समीचीनं भगिनि.
यदि मम पार्श्वे पुस्तकम् अस्ति तर्हि एव अहं दास्यामि. यदि क्षालनयन्त्रम् अस्ति तर्हि अहं वस्त्रं प्रक्षालयामि.
समीचीनं भगिनि.
यदि जङ्गमदूरवाणी अस्ति तर्हि एव अहं भवतः कक्षां क्षोष्यामि. यदि चषकः अस्ति तर्हि अहं दुग्धं पास्यामि. यदि सर्वे आगच्छन्ति चेत् तर्हि अहं सर्वे मेलिष्यामि.
तत्र यदि अस्ति चेत्
यदि
अथवा चेत् द्वयमपि न भवेत्.
ओके, यदि सर्वे आगच्छन्ति तर्हि अहं सर्वे मेलिष्यामि. सम्यकेव महोदय.
इदानीं समीचीनमस्ति चेत् अपि एकवारं वदतु.
ओ ओके, इदानीम् अन्तिमवाक्यं सर्वे मेलिष्यामि.
सर्वे न तत्र यदि इति आरब्धवती. यदि सर्वे आगच्छन्ति तर्हि
अहं
मेलिष्यामि. मेलिष्यामि तत्र मेलिष्यामि इति सर्वे इति अर्थः कः? तत्र मेलिष्यामि मिलामि.
इफ एवरीवन इज कमिंग आई विल मीट ऑल.
किन्तु तत्र मिलामि इति तत्र कर्मपदं नास्ति भगिनि. तत्र तेन सह मिलामि इति अस्ति. अहं मिलामि अपि अस्ति वा अथवा तेन? अहं चिन्तितवान् तेन एव इति. किन्तु प्रथमभागः यदि इति अस्ति तत्र. यदि निष्कास्य चेत् इति तद्रूपमपि वदतु. सर्वे जनाः आगच्छन्ति
चेत् तर्हि अहं तेन मेलिष्यामि.
तदपि तैः तैः इति
क्षम्यतां तैः
अथवा सर्वैः सर्वैः अथवा तैः.
आम् आम् महोदय, सर्वैः अपि साधु एव.
पञ्चवाक्यानि एव. चिन्ता मास्तु भगिनि.
किञ्चित् आखरे दशः वाक्यः किञ्चित् अहं संशयः अस्ति. इफ् देर् आर् इनफ् चेर्स् दे विल् सिट्. इनफ् इत्युक्ते अहं किं वदामि? यदि आसन्दः अलं सन्ति महोदय.
आसन्दः ओ इनफ् इति न इनफ् इनफ् इत्युक्ते किं?
यत्
आवश्यकाः आसन्दाः सन्ति चेत्
पर्याप्तं. सम्यक् महोदय.
पर्याप्तम् इनफ् इति इनफ् किन्तु चिन्तित्वा वदामि भगिनि इदानीं
अहं वाक्यं लिखितवती तदनन्तरं संस्कृते एव परिवर्तनं कृतवती परन्तु अहं न जानामि
सत्यं हा अस्तु अस्तु अन्य कोऽपि यदि जानाति चेत् कृपया वदतु
यथेष्टं महोदय
हा तत् प्रायशः सम्यक् एव महोदय यथेष्टाः हा समीचीनं महोदय हा यथेष्टाः आसन्दाः सन्ति चेत् सर्वे जनाः उपवेष्टुं शक्नुवन्तः इति
उपवेक्षयति
उपवेष्टुं शक्नुवन्ति
शक्नुवन्ति
धन्यवादः राजेश महोदय धन्यवादः तत् पदं किम् आसीत् पुनरेकवारं यथेष्टम् इति यथेष्टम् इति पदं हा समीचीनमस्ति हा तदेव मम मनसि न आगतम् आसीत् हा धन्यवादः राजेश महोदय हा समीचीनम् अस्ति तत्
धन्यवादः महोदय
हा वेणुगोपाल् महोदय वाक्यं वदतु वाक्यानि वदतु
अस्तु महोदय यदि बहु धनम् अस्ति तर्हि गृहं क्रीणिष्यामि अस्तु धन्यवादः यदि मम मित्राणि सन्ति तर्हि मित्रैः सह क्रीडिष्यामि यदि पाकशाले पात्राणि बाष्पस्थली अग्निचुल्लि च सन्ति तर्हि पाकं कर्तुं शक्यते यदि यज्ञं कुर्मः तर्हि यज्ञात् प्रजन्या सम्भवति यदि जलम् अस्ति यदि जलम् अस्ति तर्हि मत्स्याः जीवन्ति अस्तु
धन्यवादः महोदय समीचीनं समीचीनमस्ति महोदय हा रघुपति आचार्य महोदय वदति वा इदानीं
हा महोदय यदि वयं पापं कुर्मः तर्हि निश्चयेन नरकं प्राप्नुमः यदि त्वं सर्वदा सत्यं वदसि तर्हि कष्टमेव अनुभवसि
पुनरेकवारं महोदय
यदि त्वं सर्वदा सत्यं वदसि तर्हि कष्टम् एव अनुभवसि
अर्थः कः महोदय तत्र
निश्चयेन कष्टम्
अहम् किञ्चित् अवगच्छामि किन्तु पुनरेकवारं वदतु संस्कृत्या एव वदतु तत्
यदि त्वं यदि वयं सर्वदा सत्यं वदामः चेत्
तत्र कष्टः भवति इति
हा कष्टः भवति
सत्यं सर्वे न सत्यं न स्वीकुर्वन्ति
सर्वदा सत्यं सत्यं
न वक्तुं शक्नुमः
तत्र वयं परिस्थितिं
इदानीम् अवगच्छामि महोदय अस्तु
अवगत्य सत्यं वदामः
इदानीम् अवगच्छामि महोदय धन्यवादः
यदि सीता लक्ष्मणरेखां न अतिक्रामति तर्हि रावणः ताम् अपहर्तुं न शक्नोति यदि आकाशे मेघाः सन्ति तर्हि वृष्टिः निश्चयेन भवति
धन्यवादः
भवान् ओके यदि भवान् मङ्गलूर् नगरे आगच्छसि तर्हि अहं भवन्तं निश्चयेन मेलिष्यामि या मिलामि वा?
भवन्तं तत्र मम मनसि किञ्चित् क्लेशः अस्ति, तेन सह मिलामि इति अहं चिन्तितवान्, मिलामि इति अकर्मकक्रियापदम् इति चिन्तितवान्,
भवन्तं मिलामि सह I'll meet you. What is it?
Mahodaya? Mahodaya. Eka samshaya asti, tarhi upavujyat bhavishyat kaal rupani agachyati kriya padani sarve api ya vartamana kaala agachyati Mahodaya?
Vartamana kaalam api vartam shaknam maha. Vartamana kaalam api vartam.
Api dvayo api. Aham melishyami yada milami.
मिलामि तदपि समीचीनं. तत्र अभ्यासपुस्तके पश्यतु, यद् उदाहरणमस्ति पेज् 43 मध्ये प्रथम उदाहरणं, यदि विद्युत् अस्ति तर्हि दीपः ज्वलति. हा, वर्तमानकालमपि सम्यक् एव अस्ति भगिनि.
भविष्यत्कालरूपं
आवश्यकम् इति, हा, भविष्यत्कालरूपम् अपि सम्यक्, किन्तु भविष्यत्कालरूपम् एव आवश्यकम् इति नियमः नास्ति.
महोदय, भवान् भवान् पदस्य तृतीया विभक्ति किं भवति? तृतीया विभक्ति
भवता इति मन्ये महोदय.
भवता सह मेलिष्यामि, मिलामि.
हा, इदानीं समीचीनमस्ति इति मन्ये महोदय. तत्र मम मनसि किञ्चित् क्लेशः अस्ति, तत् अकर्मकक्रियापदमिति, यदि अन्य कोऽपि जानन्ति चेत् वदन्तु. तं मिलामि, तेन सह मिलामि इति एव अस्ति इति मन्ये, मित्रेण सह मिलामि इति वाक्यं मम मनसि अस्ति, अतः अहं चिन्तयामि तत् तत्र तृतीया विभक्ति एव सम्यक् इति. हा
महोदय, भवान् शुद्धं वदति, मिलामि सदैव तृतीया विभक्ति सह आगच्छति धातु.
धन्यवादः भगिनि. हा, एतदेव मम मनसि आसीत्, किन्तु सम्यक्तया अहं न स्मरामि, अतः धन्यवादः भगिनि. अस्तु, हा, रघुपतिमहोदय, अतः तत् भवता सह एव सम्यक् तत्र भवति तस्मिन् वाक्ये.
धन्यवादः.
धन्यवादः महोदय. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा? अस्तु अस्तु, गीता भगिनी वक्तुम् इच्छति वा? अस्तु,
प्रयत्नं करोमि.
वदतु भगिनि.
यदि विरामः अस्ति तर्हि मम गृहम् आगच्छ. यदि सर्वे पार्श्वे अभ्यासपुस्तकम् अस्ति तर्हि त्रिचत्वारिंशत् पुटे उद्घाटयन्तु.
यदि केवलं यदि अभ्यासपुस्तकं पार्श्वे अस्ति
तावदेव.
सर्वे त्यजन्तु तत्र. यदि यदि अभ्यासपुस्तकं पार्श्वे अस्ति
तर्हि त्रिचत्वारिंशत् पुटे उद्घाटयन्तु.
पुस्तकम् एतत् पुटे उद्घाटनं
करोतु. सर्वे
उद्घाटयतु अथवा उद्घाटयन्तु.
उद्घाटयतु
इति.
उद्घाटयतु.
समीचीनं भगिनि.
यदि अहं संस्कृतभाषायां भाषणं कर्तुं शक्नोमि तर्हि मां बहु सन्तुष्टां भवामि.
अहं सन्तोषम् अनुभवामि अथवा मह्यं सन्तोषः अनुभूयते अथवा अहं सन्तोषम् अनुभवामि, तत् सरलमेव अस्ति. अहं
एतत् किं मिस्टेक् इस् देर् मां बहु सन्तुष्टां भवामि.
हा तत्र माम् इत्युक्ते द्वितीयाविभक्ति कर्मपदम् इति भवति. मां पश्यतु अहं सन्तुष्टा. तत्र यदि भवामि सन्तुष्टा भवामि तदपि समीचीनमस्ति भगिनि.
यदि भवान् सर्वाणि कार्याणि समाप्तं करोति तर्हि गृहं गच्छतु.
समीचीनं.
यदि भवती शाटिकां क्रीणाति तर्हि अहमपि आपणिकम् आगच्छामि.
अस्तु. हा क्रीणाति. अस्तु अस्तु. यदि भवती शाटिकां क्रीणाति
means if you are buying if you are buying sarees I will also come to the store.
Astu astu ahamapi apanam agacchami.
Agacchami. Yadi vrishtihi na bhavati tarhi janaha bahu kashtam anubhavanti. Yadi tvam na patasi tarhi parikshayam
धन्यवादः. समीचीनमस्ति. अन्य कोऽपि वक्तुम् इच्छति वा
महोदय? सर्वे
उक्तवन्तः. भवान् चेतनि महोदय एक सरलभगिनि एकवारं भानुचेतनि महोदय सहकरोतु. भानुचेतनि महोदय वदतु महोदय.
महोदय यदि ज्ञानदृष्टिः अस्ति चेत्
तत्र यदि
एव सम्यक्
यदि वदतु एकवारं वदतु महोदय.
यदि ज्ञानदृष्टिः अस्ति चेत् तर्हि एव सम्यक् दर्शनं सम्भवति न
वनशिति महोदय. तत्र यदि अपि चेत् समानार्थकपदं स्तः. यदि अपि चेत्
महोदय
यदि यदि कार्यालय कार्यानम् अस्ति अथवा कार्यानम् अस्ति चेत् तत्र यदि पदम्
इति न आवश्यकं तत्
चेत् पदस्य आवश्यकता नास्ति. अतः प्रथमवाक्यं भवतः प्रथमवाक्यं यदि
ज्ञानदृष्टिः अस्ति तर्हि एव सम्यक् दर्शनं
तर्हि एव
सम्यक् दर्शनं सम्भवति न
सम्भवति न उपनेत्रेण. अस्तु समीचीनं.
यदि अग्रिमम् अहं यदि अहं शाकं खादामि तर्हि अहं आरोग्येन वसामि. यदि कर्मयोगः कर्तुं शक्नोमि तर्हि चित्तस्य शुद्धि प्राप्नोमि.
तत्र यदि कर्मयोगम् इति कर्मपदमस्ति तत्र करोमि अथवा कर्तुं शक्नोमि तत्र प्रथमभागः किम् आसीत् महोदय
यदि कर्मयोगं कर्तुं शक्नोमि तर्हि चित्तस्य शुद्धिं प्राप्नोमि
हा शुद्धिं शुद्धिं हा तत्र अपि कर्मपदं हा समीचीनं महोदय इदानीं हा
महोदय एकः प्रश्नः अस्ति भूतकाल एक्स्प्रेशन् बि एक्स्प्रेशन् अपि वक्तुं शक्नोमि वा इफ् यू हेड् स्टडीड् देन् यु वुड् हव् पास्ड्
अग्रे पश्यामः भगिनि हा अग्रे पश्यामः भूत किन्तु भूतकालरूपमपि समीचीनमेव अस्ति
यदि यदि तर्हि
तत्र तत्र यदि भवान् ग्रन्थालयं गतवान् तर्हि पुस्तकं पठितुं शक्नुवान्
धन्यवादः
हा तदपि सम्यक् इति एव मन्ये भगिनि हा अस्तु हा सरला भगिनी भवती वदति वा इदानीम्
अस्तु यदि अभ्यासं कुर्मः तर्हि ज्ञानं सम्यक् भवेत् यदि भवान् उच्चैः वदतु तर्हि पितामहः श्रोतुं शक्नोति यदि क्रोधं त्यजत्
किमर्थं तत्र वदतु
वदतु इति आज्ञा करोति माता
तत्र हा तत्र वदतु लोट् सकार तत्र
लोट् लकाय
हा तद् हा अहम् एतत् सम्यक्तया न जानामि भगिनि तत्र लोट् लकारस्य हा
यदि क्रोधं त्यजति तर्हि मनसि शान्तिः आयाति यदि मधुरं खादति तर्हि कथं मधुमेहरोगस्य चिकित्सा भवेत् यदि शाकम् आनयति तर्हि पाकं पचामि अस्तु अभवत् पञ्चवाक्यानि
अस्तु अस्तु धन्यवादः भगिनि धन्यवादः हा तत्र केवलं लोट् लकारस्य प्रयोगः तत्र भवति न वा इति अहं द्रष्टव्यमस्ति भगिनि अहं न जानामि तावदेव अस्तु सर्वे उक्तवन्तः इति मन्ये कोऽपि न उक्तवान् उक्तवती वा अस्तु
महोदय लोट् आज्ञाया वा प्रार्थना अस्ति इदानीमेव वाक्यम् अस्ति इफ् यु आर् डूयिङ्ग् इट् आज्ञाप्रार्थना नास्ति न महोदय
तत्र इफ् यु संस्कृतेन वदतु भगिनि वाक्यं किम् इति
भगिनी वदति एव भगिनी वदति एव लोट् लकारे वाक्य पदमस्ति चेत् अहं वदामि लोट्
वदतु अर्थः न जानामि यदि भवान् उच्चैः वदतु यदि त्वम् उच्चैः यदि भवान् उच्चैः वदतु तत्र अर्थः अहं सम्यक्तया न अवगच्छामि भगिनि अतः मम मनसि क्लेशः अस्ति अतः अहं द्रष्टव्यमस्ति यदि तत्र लोकप्रकारस्य प्रयोगः भवति न वा इति हा वर्तमानकाल भूतकालरूपं तत् अथवा भविष्यत्कालरूपं तत् समीचीनम् इति मन्ये किन्तु लोट् लकारस्य अपि भवति न वा इति न जाने अहं जानामि अस्तु अस्तु इदानीं तत्र अग्रे गच्छामः तत्र तः पर्यन्तम् इति विषयः अस्ति तत्र राजेश् महोदय तत्र पठति वा पेज् 44 पुटसङ्ख्या 45 क्षम्यतां हा थ पर्यन्तम् इति यत् अस्ति तत्र
आम् महोदय तः पर्यन्तम् अत्र नारायणस्य दिनचर्या लिखिता अस्ति तां दृष्ट्वा वाक्यानि लिखतु
अत्र
षड्वादनतः
कोष्टकं यत् अस्ति तदेव अग्रे अग्रिमपुटे वाक्यरूपेण दत्तमस्ति अत्र प्रथमवाक्यं तत्र पठतु महोदय
एकनिमिषम् नारायणः षड् वादनतः सप्तवादनपर्यन्तं योगासनं करोति
हा समीचीनं महोदय अग्रिममपि कोष्टकं दृष्ट्वा एकवारं वदतु
अहमेव वदामि
वदतु
अग्रिम नारायणः सपाद सप्तवादनतः सपादाष्टवादनपर्यन्तं गृहपाठं लिखति
लिखति समीचीनं महोदय अस्तु तत्र पुटसङ्ख्या 45 पुनरेकवारं पश्यामः तः पर्यन्तम् इति प्रयोगः अत्र अत्र वाक्यं परिशीलयामः अत्र नारायणस्य दिनचर्या लिखिता अस्ति दिनचर्या दिने किं किं कुर्मः क्रमेण किं किं कुर्मः प्रथमं कुर्मः तदनन्तरं एतं कुर्मः इति यदस्ति तत् दिनचर्या इति वदामः अत्र नारायणः योगासनं करोति तदनन्तरं गृहपाठः करोति तदनन्तरं विद्यालयं गच्छति क्रीडा क्रीडति अध्ययनं करोति तदनन्तरं निद्रां करोति तदेव तस्य दिनचर्या इति स्त्रीलिङ्गे अस्ति दिनचर्या अधोभागे दत्तमस्ति अथवा दिनचर्या लिखिता अस्ति लिखिता इति विशेषणं भवति दिनचर्या अधो लिखिता दिनचर्या इति लिखिता अस्ति तत्र ताम् इत्युक्ते किम् अस्ति कोऽपि वदति वा ताम् इत्युक्ते अग्रिमवाक्ये ताम् इति
दिनचर्यां
हा तां दिनचर्यां दृष्ट्वा वाक्यानि लिखतु ताम् इति पदस्य अन्वयः कुत्र अस्ति इत्युक्ते ताम् इति शब्दस्य अन्वयः वाट् डस् इट् रिलेट् टु ताम् इत्युक्ते सा इत्युक्ते दिनचर्या तां दिनचर्यां दृष्ट्वा वाक्यानि लिखतु इति अस्तु तत्र समयः दत्तमस्ति कार्यमपि दत्तमस्ति योगासनम् इति तद् प्रथमम् आसीत् तदनन्तरं गृहपाठं यत् तत्र योगासनं करोति तदनन्तरं गृहपाठः इति दत्तमस्ति किन्तु तत्र रूपं किं भवति गृहपाठं लिखति इति भवति तदनन्तरम् अस्तु तत्र निद्रा इति यत्र अस्ति तत्र निद्रां करोति इति तदपि पश्यतु करोति यत्र भवति अथवा लिखति पठति तस्य पूर्वं यदि शब्दः अस्ति तत्र निद्रां केवलं विद्यालये इति तत्र किञ्चित् वैलक्षण्यम् अस्ति किन्तु अध्ययनं निद्रां विद्यालयं गृहपाठं तत्र कर्मपदम् अस्ति सर्वत्र तत्र अस्तु नरेश् महोदय अग्रिमं करोति वा तत्र नारायणः
दशवादनतः पञ्चवादनः पर्यन्तं विद्यालये
पञ्चवादनपर्यन्तं
विद्यालये पठति
विद्यालये पठति समीचीनं महोदय गीता भगिनी अग्रे
नारायणः क्रीडति
ओके सो नारायणः पञ्चवादनतः षड्वादनपर्यन्तं क्रीडति
क्रीडति समीचीनं भगिनि हा अस्तु वेणुगोपाल् महोदय अग्रे
अस्तु सार्धषड्वादनतः सार्धसप्तवादनपर्यन्तम् अध्ययनं करोति
नारायणः
नारायणः अध्ययनं करोति नारायणः अस्तु
पुनरेकवारं वदति चेत् समीचीनं वदतु महोदय
नारायणः सार्ध षड्वादनतः सार्धसप्तवादनपर्यन्तम् अध्ययनं करोति
अध्ययनं करोति समीचीनं महोदय रमाबाय् भगिनी
नारायणः रात्रौ दशवादनतः पञ्चवादनपर्यन्तं निद्रां करोति
समीचीनं भगिनी समीचीनं हा अस्तु इदानीं रघुपति आचार्य महोदय भवान् भवतः दिनचर्यां किमपि वदतु एकवाक्यम् अहम् इति
अहं षड्वादनतः सार्धसप्तवादनपर्यन्तं गीतासोपानस्य वर्गे पाठं पठामि
समीचीनं महोदय वंशीसुधा भगिनि
अहं सार्धचतुर्वादने उत्तिष्ठामि तदनन्तरं पूजां
करोमि
सार्धचतुर्वादनतः सार्धपञ्चवादनतः अहं पूजां करोमि
तः पर्यन्तं भवति
सार्धचतुर्वादनतः सार्धपञ्चवादनपर्यन्तम् अहं पूजां करोमि
इदानीं वाक्यं समीचीनम् अस्ति पर्यन्तं पर्यन्तम् इति अस्तु धन्यवादः सरल भगिनि
अहम् अष्टवादनतः शृणोति महोदय अष्टवादनतः पञ्चवादनपर्यन्तं कार्यालये अस्मि
कार्यालये अस्मि अस्तु भगिनि हा बालचेतनी महोदय अस्तु
हरि ओम्
महोदय अस्तु
अहं सार्धदशवादनतः सार्ध एकादशवादनपर्यन्तं भगवद्गीता पाठयामि
भगवद्गीतां पाठयामि भगवद्गीताम् इति भवति कर्मपदं
भगवद्गीतां पाठयामि
समीचीनं महोदय कोऽपि न सर्वे उक्तवन्तः इति मन्ये कोऽपि न उक्तवान् यदि कोऽपि न उक्तवान् कृपया सूचयतु अस्तु सर्वे उक्तवन्तः इति मन्ये अस्तु तत्र तः पर्यन्तम् इति यदस्ति तत्र इदानीं समयस्य विषये तः पर्यन्तम् इति वयं दृष्टवन्तः तत्र इदानीम् एकस्मिन् दिने एव अष्टवादनतः नववादनपर्यन्तम् एतादृशानि रूपाणि दृष्टवन्तः अग्रे किं भवति एकदिनेन किन्तु एकतः सप्तपर्यन्तम् इति तस्य रूपम् इदानीं पश्यामः तादृशरूपम् इदानीं पश्यामः तत्र सङ्ख्याः सन्ति किन्तु प्रायशः एकवारं सङ्ख्यायाः स्मरणं कुर्मः चेत् तत्र सौकर्यं भवति. तत्र षोडशपुटे पेज् 16 तत्र तत्र सङ्ख्याः सन्ति एकादशतः चत्वारिंशत् पर्यन्तं सङ्ख्याः सन्ति तत्र. सर्वे पश्यन्ति खलु तत्र पेज् 16 अभ्यासपुस्तके. हा तत् एकवारं प्रायशः सर्वे एकवारं तद् वयं न कृतवन्तः इति मन्ये, किन्तु हा एकवारं तत्र एकवारं पठामः तदनन्तरम् एतत् सुलभतया कर्तुं शक्नुमः इति मन्ये. अस्तु तत्र गीता भगिनी तत्र एकादशतः विंशतिपर्यन्तम् एकवारं पठतु तत्र.
ओके. एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश षोडश सप्तदश अष्टादश नवदश विंशतिः.
हा समीचीनं, धन्यवादः भगिनी. हा वेणुगोपाल् महोदय तत्र एकविंशतितः त्रिंशत् पर्यन्तम्
अस्तु. एकविंशति
एकविंशतिः
एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत्.
हा समीचीनं. हा राजेश महोदय तत्र एकत्रिंशत्तः चत्वारिंशत् पर्यन्तम्.
आम् महोदय. एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत्.
हा धन्यवादः महोदय. हा तत्र एकः अंशः तत्र द्रष्टव्यम् अस्ति. तत्र द्वा इति स्थाने दीर्घ अकारः भवति. हा तत्र द्वादश चतुर्दश पञ्चदश अस्ति किन्तु द्वादश भवति. तदनन्तरं पञ्चविंशतिः अस्ति किन्तु द्वाविंशतिः अस्ति. चतुर्विंशत् अस्ति किन्तु चतुर्त्रिंशत् अस्ति चतुस्त्रिंशत् अस्ति किन्तु द्वात्रिंशत् अस्ति. तादृश दीर्घ आकारः अन्यत्र कुत्रापि भवति वा दीर्घ आकारः? समीचीनम् अष्ट अपि द्वा तत्र एव दीर्घ आकारः अस्ति. अष्टादश अष्टाविंशतिः अष्टात्रिंशत् इति. हा हा तदेव मनसि यदि स्थापयामः सुलभं भवति. अत्र किञ्चित् किञ्चित् अवधेयं दीर्घ आकारः अस्ति द्वा इति अस्ति अपि अष्टा इति भवति. अस्तु इदानीं सङ्ख्यान् दृष्टवन्तः. इदानीम् अग्रिम
महोदय
तत्र सन्धिविषयः इति मन्ये सन्धिविषयः अस्ति इति मन्ये महोदय सन्धि. अस्तु इदानीम् अग्रिम अभ्यासः कर्तुं शक्नुमः 16.1 पेज् 46 मध्ये. तत्र वंशी सुधा भगिनी भवती पठति वा तत्र?
आं महोदय. अत्र कर्णाटकमुख्यमन्त्रिणः कार्यक्रमस्य विवरणम् अस्ति. तत् दृष्ट्वा सः कदा कुत्र तिष्ठति इति लिखतु.
तत्र प्रथमवाक्यस्य अर्थः कः इति वदतु. तत् किमस्ति?
कर्णाटकमुख्यमन्त्रिणः कार्यक्रमविवरणम् अस्ति महोदय. कार्यक्रमस्य विवरणः
तत् किञ्चित् अपि वदतु. तत्र कर्णाटकस्य मुख्यमन्त्री तत्र मन्त्रिणः इत्युक्ते तत् किम् अस्ति?
षष्टि.
अतः तत्र सुलभं कर्तुं किं कुर्मः, कर्णाटकमुख्यमन्त्री अस्ति तस्य कार्यक्रमस्य विवरणम्
अस्ति
अस्ति इति तादृश वक्तुं शक्नुमः खलु. अस्तु, विवरणम् अस्ति. तदनन्तरं तत् इति अस्ति. तत् इति युक्ते किम्? किं किन्तु किं दृष्ट्वा तत् दृष्ट्वा इति दत्तमस्ति? किं दृष्ट्वा?
विवरणं दृष्ट्वा महोदय.
हा, समीचीनं भगिनि. तदेव तदेव, तत् विवरणं दृष्ट्वा
सः
विवरणं दृष्ट्वा
सः कदा कुत्र तिष्ठति, कदा कुत्र तिष्ठति लिखतु
इति इति लिखतु. हा, इदानीं समीचीनम् अस्ति. सर्वे अवगच्छन्ति इति मन्ये. अस्तु, हा, तत्र प्रथमं करोतु भगिनि. हा, प्रथमं द्वितीयं
जनवरि एकतः सप्तपर्यन्तं मुख्यमन्त्री बेङ्गलूरुनगरे तिष्ठति.
हा,
अस्तु महोदय.
हा, इदानीं द्वितीयवाक्यं तत्र
जनवरि अष्टतः त्रयोदशपर्यन्तं मुख्यमन्त्री मैसूरुनगरे तिष्ठन्ति.
हा, समीचीनं भगिनि. अस्तु, इदानीं बालचैतन्य महोदय अग्रिमम्.
महोदय, जनवरि अष्टतः त्रयोदशपर्यन्तं मैसूरुनगरे. आं महोदय, जनवरि चतुर्दशतः अष्टादशपर्यन्तं मुख्यमन्त्री धारवाडनगरे तिष्ठति.
तत्र सप्तदश महोदय, तत्
सप्तदश. आम्, सप्तदशपर्यन्तं मुख्यमन्त्री धारवाडनगरे तिष्ठति. जनवरि चतुर्दशतः सप्तदशपर्यन्तं मुख्यमन्त्री धारवाडनगरे तिष्ठति.
हा, समीचीनं महोदय. अस्तु, रमाबाई भगिनी अग्रिमम्.
जनवरि अष्टादशदिनाङ्कतः विंशतिपर्यन्तमपि
वक्तुं
शक्नुमः.
गुल्बर्गनगरे
अस्ति.
तिष्ठति इति स्टे इति अस्ति इत्युक्ते विल् बि देर् तिष्ठति, हि विल् स्टे इति अस्ति. हा, तिष्ठति तिष्ठति. हा, समीचीनं भगिनि. हा,
एकः प्रश्नः अस्ति महोदय, विंशतिः पर्यन्तम् अस्ति न, अस्ति वा? विंशतिः इस् अ विसर्ग इस् देर् नो?
विंशतिपर्यन्तं, हा, तत्र इदानीं सुलभं भवति इति चिन्तयामः, अतः विंशतिपर्यन्तम् इति अहं वदामि. सत्यमेव, किन्तु इदानीम् एतद् रूपमेव स्वीकुर्मः भगिनि.
महोदय,
अत्र
समस्तपदं खलु विंशतिपर्यन्तं?
विंशतिपर्यन्तम्, आम्.
तर्हि प्रातिपदिकम् एव.
अस्तु अस्तु, तदपि समीचीनमेव अस्ति. धन्यवादः महोदय. हा, यत् राजेश् महोदय वदति तदपि बहु समीचीनमस्ति. सः वदति विंशतिपर्यन्तम् इति स्वीकुर्मश्चेत् तत्र समस्या न भवति. विंशतिपर्यन्तम् इति एकमेव पदमस्ति. किन्तु तत्र प्रश्नः किम् आसीत्, विंशतितः इति वा अथवा
विंशतिपर्यन्तं?
पर्यन्तं, हा, अतः विंशतिपर्यन्तं.
कथं लेखनीयं विंशतिपर्यन्तं?
न न न, तत्र प्रायशः विंशतिपर्यन्तम् अहं चिन्तयामि विसर्गस्य लोपः भवति इति. विंशतिपर्यन्तं
तत्र सन्धिः भवति, सन्धिः भवति विंशतिः पर्यन्तं, यः
विंशतिः पर्यन्तं,
विंशतिः पर्यन्तं
तत्
उपद्मानीय
उपद्मानीय
वदतु वदतु महोदय.
उपद्मानीयसन् उपबन् विंशतिः विंशतिः पर्यन्तं पकार उपद्मानीय भवति.
अस्तु हा अस्तु, किन्तु इदानीं
चरणसमये केवल उच्चारणसमये
एतत्
उच्चारणसन्धिनि सन्धिना
इदानीं तत् सन्धि एतत् सर्वम् अग्रे कुर्मः. इदानीं सुलभं भवतु, प्रथमतया रूपं कीदृश इति किञ्चित् पश्यामः, तस्य प्रय अभ्यासः कुर्मः, तदनन्तरं यद्यत् सन्धि एतत् विषयम् अग्रे कुर्मः. अस्तु, सर्वे अङ्गीकुर्वन्ति वा एतत्?
आम् महोदय, आम् महोदय.
हा अत्र तत्र केवलं अत्र विषयः अस्ति तः पर्यन्तं, तदेव अस्ति. हा अस्तु, अत्र किमस्ति अभ्यासपुस्तकतः सन्धिपर्यन्तं बहु दूरम् अस्ति, अतः इदानीम् अभ्यासपुस्तके एव तिष्ठामः. अस्तु, सन्धि नगरम् इदानीं न गच्छामः, अग्रे गच्छामः. अस्तु, तत्र सर्वे कृतवन्तः, सर्वे कार्यक्रमस्य सर्वाणि वाक्यानि उक्तवन्तः वा? अस्तु, किं गुल्बर्गा कृतं, कोलारनगरं न कृतम् इति मन्ये. तत्र कः न उक्तवन्तः, नरेश् महोदय वदति वा?
आम्, जनवरी एकविंशतितः चतुर्विंशतिपर्यन्तं मुख्यमन्त्री कोलानगरे तिष्ठति.
हा समीचीनं महोदय. कः न उक्तवान्, रघुपतिमहोदय भवान् उक्तवान् वा अत्र?
जनवरी पञ्चविंशतितः त्रिंशत् पर्यन्तं मुख्यमन्त्री मद्रास् नगरे तिष्ठति.
तिष्ठति, समीचीनं महोदय. तत्र मन्त्री इति किञ्चित् क्लिष्टपदम् अस्ति, मन्त्रीण् इति भवति प्रायशः,
मन्त्री
अतः मन्त्री इति मन्त्री इति अस्ति, तत् नकारान्तपुल्लिङ्गशब्दः अस्ति मन्त्रीण् इति. योगिन्, राजन् तादृश अनेकाः
मुख्यमन्त्री
शब्दाः सन्ति पुल्लिङ्गशब्द.
तत्र
अनेकाः सन्ति नकारान्तपुल्लिङ्गशब्दः. अस्तु अस्तु, इदानीं तत्र अतः पर्यन्तं तस्य किञ्चित् अभ्यासः जातः, इदानीम् अग्रे एतत् कुर्मः. तत् अद्य आरभ्य इति अभ्यासः, अद्य आरभ्य तत्र कः न उक्तवान्, सरला भगिनी तत्र पठितुम् इच्छति वा? प्रायशः न. अस्तु, गीता भगिनी तत्र
माला गोपाल, भवतः परीक्षा समीपम् आगता अस्ति, अद्य आरभ्य प्रतिदिनं पठतु.
गोपालः तत्र तावत् समीचीनं भगिनि. अद्य आरभ्य इत्युक्ते अद्य अस्ति, अद्य अपि पठतु, श्वः अपि पठतु, परश्वः अपि पठतु, सर्वे दिने पठतु, प्रतिदिनं पठतु इति अद्य आरभ्य. अद्य आरभ्य इत्युक्ते फ्रम् टुडे इति अर्थे. अद्य आरभ्य तत्र श्वः आरभ्य अथवा प्रश्नः अस्ति कदा आरभ्य, परश्वः आरभ्य, प्रपरश्वः आरभ्य, परह्यः आरभ्य इति रूपम् अस्ति. एकमेकं पश्यामः. तत्र भानुचैतन्यमहोदय अग्रिमं पठति वा तत्र?
महोदय
भानुचैतन्य अग्रिमं
गोपाल
माला यदुक्तवती तत् कृतम्. अद्य आरभ्य यत्र रक्तवर्णे अस्ति तत् कृतं. श्वः आरभ्य इति वाक्यमस्ति. गोपालः वदति.
आम् महोदय. गोपालः: अद्य अहं मित्रस्य गृहं गच्छामि, श्वः आरभ्य पठिष्यामि भगिनी
इति सः वदति. सः न स्वीकरोति अद्य आरभ्य प्रतिदिनं पठतु इति. सः वदति अहं श्वः आरभ्य पठिष्यामि इति. अस्तु अस्तु. तदनन्तरं वेणुगोपाल महोदय अग्रिमं वाक्यं.
महोदय माला: भवतु गोपाल, विद्यालये योगासनकक्षा कदा आरभ्य भविष्यति?
कदा आरभ्य इत्युक्ते किम् अस्ति तत्र?
फ्रम् वाट् टैम्? कदा?
कदा? फ्रम् वाट् टैम्? समीचीनं महोदय. राजेश महोदय अग्रिमं.
गोपालः परश्वः आरभ्य भविष्यति.
इदानीं तत्र पूर्णवाक्यं वदतु. प्रश्नस्य उत्तरं पूर्णं पूर्वं प्रश्नमासीत् खलु, तस्य उत्तरम् एतद् वाक्यम् उत्तरमस्ति, किन्तु प्रश्नम् अपि दृष्ट्वा किञ्चित् दीर्घवाक्यं वदतु. परश्वः किं, परश्वः आरभ्य किं भविष्यति इति.
परश्वः विद्यालये योगासनकक्षा
तत्र यत्र रक्तवर्णे कदा आरभ्य अस्ति तत् तस्मिन् स्थाने परश्वः आरभ्य इति स्थापयतु. तावदेव. विद्यालये योगासनकक्ष्या कदा आरभ्य भविष्यति? उत्तरं भवति, उत्तरमपि तादृशरूपमेव अस्ति. विद्यालये योगासनकक्ष्या इदानीं
परश्वः आरभ्य
सत्यं
भविष्यति.
इदानीं पूर्णवाक्यं वदतु.
विद्यालये योगासनकक्ष्या परश्वः आरभ्य भविष्यति.
समीचीनं महोदय. प्रश्नम् अस्ति तस्मिन् एव रूपे इदानीं उत्तरमपि अस्ति. समीचीनं महोदय. तदनन्तरं वंशीसुधा भगिनी अग्रे.
आं महोदय. माला: परश्वः मम अवकाशः न भविष्यति, प्रपरश्वः आरभ्य अहमपि योगासनकक्षाम् आगमिष्यामि.
अर्थः अवगच्छति वा? अर्थम्
अर्थः माला वदति एव, परश्वः न गच्छ गमिष्यति, अवकाशः
नास्ति,
शक्यते. प्रपरश्वः माला योगासनकक्षां गमिष्यति इति वदति महोदय.
इति वदति. समीचीनं भगिनि. अस्तु. रघुपतिमहोदय अग्रे.
गोपालः: भगिनी, मातुलस्य पत्रम् आगतं वा?
तत्र उदाहरण उत्तरमपि वदतु.
माला: नैव भोः, अहं परह्यः आरभ्य तस्य प्रतीक्षां कृतवती, परन्तु न आगतम् एव.
तत्र अवगच्छति वा किम् अस्ति इति?
अवगतम्.
अस्तु सा किं वदति
इदानीमपि प्रतीक्षां कुर्वती अस्ति इदानीमपि कुर्वती अस्ति परश्वः आरभ्य मातुलस्य पत्रस्य प्रतीक्षां कुर्वती अस्ति परन्तु न आगतम् इदानीमपि न आगतं न आगतम् एव इति
परन्तु पत्रं न आगतम् एव न आगतमेव प्रतीक्षाम् अद्यापि करोति ह्यः अपि कृतवती परह्यः अपि सा कृतवती अतः सा परह्यः आरभ्य पत्रस्य प्रतीक्षां कृतवती परन्तु तत् पत्रं न आगतम् एव इति अस्तु तत्र अस्तु
महोदय तिस्रः वाक्यं कदा आरभ्य तत्र महोदय योगासनकक्ष्या इति कर्मपदं न आवश्यकं वा तत्र
तत्र कक्ष्या एव अस्ति कक्ष्या कदा भवति इति अस्ति तावदेव कदा आरभ्य तत् कक्ष्या इति कर्तृपदमस्ति तत्र योगासनकक्ष्या
योगकक्ष्यां कदा आरभ्य
न तत् महोदय पश्यतु विद्यालये योगासनकक्ष्या अद्य अस्ति किन्तु श्वः किं वदामः विद्यालये योगासनकक्ष्या श्वः भवति अथवा भविष्यति योगासनकक्ष्या अस्ति श्वः भवति परश्वः भविष्यति तत्र योगासनकक्ष्या अस्ति इति तत्र कर्तृपदमेव अस्ति महोदय तत्र अस्ति इति क्रियापदस्य कर्मपदं नास्ति
महोदय
अतः तत्र योगासनकक्ष्या कदा आरभ्य भविष्यति इति समीचीनं वा
समीचीनं महोदय
अस्तु अन्य कोऽपि प्रश्नः अस्ति वा अत्र अस्तु अस्तु अतः एकमेकं भवान् सर्वे वदन्तु अद्य आरभ्य अथवा श्वः आरभ्य इति भवन्तः किं किं कुर्वन्ति इति अस्तु राजेश महोदय
अद्य आरभ्य अहं संस्कृतं सम्यक् पठामि
समीचीनं महोदय नरेश महोदय
श्वः आरभ्य अहं संस्कृतं वदनं प्रयत्नं करोमि
अस्तु महोदय गीता भगिनी
श्वः आरभ्य अहं संस्कृतभाषां दिने दिने प्रतिदिने पठामि
प्रतिदिनं पठामि
प्रतिदिनं पठामि
प्रतिदिनं पठामि समीचीनं भगिनि वेणुगोपाल महोदय
अद्य आरभ्य पूजां करोमि
अद्य आरभ्य पूजां करोमि अस्तु महोदय रघुपति महोदय
अहम् अद्य आरभ्य संस्कृतेन सम्भाषणं करोमि
अस्तु समीचीनं महोदय सरला भगिनी वदति वा
आं महोदय
श्वः आरभ्य मन्दिरे गीतापारायणं भविष्यति.
अस्तु, समीचीनं भगिनि. बन्धुचैतन्य महोदय.
परह्यः आरभ्य होमियोपति औषधम् अहं स्वीकरोमि.
स्वीकरोमि, अस्तु. वंशीसुत भगिनि.
अद्य आरभ्य अहं भगवद्गीता पठामि.
भगवद्गीतां
गीतां पठामि.
समीचीनं भगिनि. वेणुगोपाल महोदय.
अद्य आरभ्य बहु कार्यं करोमि.
बहु कार्यं करोमि, अस्तु. राजेश महोदय.
आम्
राजेश महोदय, न श्रूयते महोदय. इदानीं श्रूयते. राजेश महोदय न श्रूयते. किञ्चित् श्रुतं किन्तु इदानीं न श्रूयते. अस्तु, राजेश महोदय अस्ति वा? न श्रूयते महोदय. अस्तु, अतः किञ्चित् अतः यदा तदा प्रायशः एतत् राजेश महोदय वा? महोदय न श्रूयते. अस्तु अस्तु, अस्तु, एतत् कुर्मः, अग्रिमं कुर्मः. तत्र कः पठति? रमाबाई भगिनी अग्रे पठति वा, यदा तदा इति?
महोदय, यदा तदा, यदा अहं तत्र गतवान् तदा सः पठति स्म.
तत्र अवगच्छति वा, तत्र किम् अस्ति इति वाक्यम् अवगच्छति वा भगिनि?
यदा अहं तत्र गतवान् तदा सः
भवती भवती प्राय भवती तत्र वदतु भगिनि, वदतु. वदतु वदतु.
यदा अहं तत्र तदा एव सः पठनम् आरम्भं करोति.
सः पठति स्म, सः पठति स्म. अहम् अहं भवती तत्र गतवान् इति अस्ति, तत् पुल्लिङ्गे अस्ति. भवती गतवती इति वाक्यं भवति, किन्तु तत्र यदि भवती तत्र गतवती, यदा भवती तत्र गतवती तदा सः पठति स्म. भवती तत्र गतवती, किन्तु सः किं तस्मिन् समये सः किं करोति? सः पठति स्म.
तस्मिन् समये सः पठति
पठति स्म. सः पठति पठति स्म इति भूतकाले. अस्तु, तत्र यदा तदा इति. अस्तु, तत्र गीता भगिनी अग्रिमं पठति वा?
यदा भवान् बेङ्गलूरु आगमिष्यति तदा मम गृहे एव वासं करोतु.
तत्र अर्थः अवगच्छति वा वाक्यम्?
अवगच्छामि.
यदा तदा, यदा एतत् भवति तदा एतत् अन्यत् अपि भवति इति. अस्तु, नरेश महोदय अग्रिमं पठति वा?
अहं सज्जः भवामि, यदा भवान् आगच्छति तदा गच्छामः.
अवगच्छति खलु महोदय?
अहं
सज्जः भवामि,
अहं सज्जः अस्मि, यदा भवान् आगच्छति अहं गच्छामः
तदा गच्छामः तत्र विलम्बः न भवति अहं सज्जः भवामि
भवतः इत्युक्ते
रेडि अहं सज्जः भवामि यदि यदा भवान् आगच्छति तदा एव वयं गन्तुं शक्नुमः अतः गच्छामः तत्र विलम्बः न भवति अहं सज्जः एव भवामि इति
महोदय अत्र भवान् आगच्छति सम्यक् वा आगच्छसि अपि द्वयमपि समीचीनं वा
आगमिष्यसि
भवान् मध्यमपुरुष अस्ति
न महोदय
तत्र
बहु मुख्यविषयः अस्ति उत्तमप्रश्नः अस्ति महोदय भवान् इति प्रथमपुरुषरूपम् अस्ति
ओके 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 ओके
हा तत् बहु धन्यवादः भवान् पृष्टवान् नो चेत् तत् मनसि क्लेशः एव भवति अतः एव लोट्लकारे भवान् पश्यतु किन्तु त्वं पश्य भवान् लिखतु किन्तु त्वं लिख इति अत्र रूपभेदः भवति भवान् इति आगच्छति तत्र केवलम् अहम् आवां वयं त्वं युवां यूयं तद्विहाय सर्वत्र प्रथमपुरुषरूपमेव अस्ति
ओके 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 ओके
हा अतः भवान् आगच्छति एव सम्यक् अस्ति अत्र किन्तु प्रश्नः उत्तमः एव अस्ति
अहं चिन्तितवान् भवान् इत्युक्ते सर्वदा मध्यमपुरुष
एतदेव मम मनसि एव पूर्वम् एतदेव आसीत् किन्तु तद् भ्रमः एकवारं दृष्ट्वा तद् जातं तत्र त्वम् इति अर्थे अस्ति भवान् इति त्वम् इति अर्थे अस्ति किन्तु व्याकरणदृष्ट्या भवान् इति प्रथमपुरुषरूपं भवति त्वम् इति मध्यमपुरुषरूपं भवति अस्तु अग्रे वेणुगोपाल् महोदय पठति वा
महोदय यदा वयं काश्मीरं गतवन्तः तदा तत्र बहु शैत्यम् आसीत्
वाक्यम् अवगच्छति वा
आं महोदय यदि यदि वयं सर्वे शैत्यम् इत्युक्ते कोल्ड्
शीतम् इति अस्ति तस्य क्वालिटि शैत्यम् इति शैत्यं सुन्दरं सुन्दर कोऽपि सुन्दरः अस्ति तत् तस्य भावः अस्ति सौन्दर्यम्
अस्तु
सुन्दरः सौन्दर्यं तादृशशीतं शैत्यम् इति
शैत्यम् अस्तु
नौन् फार्म् महोदय
किं भगिनि
नौन् फार्म्
नौन् फार्म् सुन्दर तत्र भावः इति शैत्यं गुणः अथवा भावः इति अर्थे सुन्दरः
जनरोसिटि
तादृश अर्थः समीचीनं भगिनि तत्र क्वालिटि इति क्वालिटि गुण स्वभावः तत्र तदा यदा तदा अस्तु अग्रे भानुचैतन्य महोदय
आं महोदय यदा अहं भवतः गृहम् आगतवान् तदा भवान् कुत्र गतवान् आसीत्
इति प्रश्नः सर्वे अवगच्छन्ति खलु तत्र यदा अहं भवतः गृहम् आगतवान् तदा भवान् कुत्र गतवान् आसीत् अस्तु कः न उक्तवती अथवा उक्तवान् अस्तु अस्तु राजेश महोदय इदानीं श्रूयते महोदय अस्तु अस्तु वदतु
यदा अहं विद्यार्थिनी आसं तदा संस्कृतं पठितवती
अतः वाक्यम् अवगच्छति खलु महोदय?
अस्तु,
तदेव इदानीं पुल्लिङ्गे वदतु तत्.
यदा अहं विद्यार्थी आसं तदा संस्कृतं पठितवान्
संस्कृतं पठितवान्. समीचीनं महोदय. विद्यार्थी आसं तदा संस्कृतं पठितवान्. समीचीनं महोदय. अस्तु, इदानीं तादृश यदा तदा इति नूतनवाक्यं स्ववाक्यं अत्र कः वक्तुम् इच्छति? यदा तदा इति
अहं वक्तुं.
हा, सरला भगिनी वदतु भगिनि.
यदा भवान् औषधं पास्यति तदा स्वस्थः भविष्यति.
समीचीनं भगिनि. हा, अन्य कोऽपि? यदा तदा प्रश्नः अपि भवितुमर्हति. हा, वाक्ये केवलं यदि कोऽपि न वदति तर्हि अहम् एकमेकं पृच्छामि. हा, अतः कोऽपि इदानीमेव वदतु.
यदा शिक्षकः वर्गे आगच्छति तदा सर्वे छात्राः उत्तिष्ठन्ति.
हा, समीचीनं भगिनि. हा, अन्य?
यदा अहं पाकं करोमि तदा खादामि.
तदा अहं खादामि. सर्वे समीचीनं महोदय. हा, अन्य कोऽपि?
महोदय, यदा अहं वक्तुं यते तदा दूरवाणीं न चलति.
दूरवाणी न चलति. तदा दूरवाणी न चलति. अस्तु, समीचीनं महोदय. अस्तु,
यदा अहं संस्कृतेन सम्भाषणं कर्तुम् आरभामि तदा बहु कष्टम् अनुभवामि.
सर्वे एतदेव भवति महोदय. सत्यं. किन्तु गच्छता कालेन सुलभं भवति इति वयं सर्वे चिन्तयामः. सत्यं महोदय. वंशीसुधा भगिनी वदतु.
यदा अहं कक्षां शृणोमि तदा एव अहं संस्कृतं वक्तुं शक्नोमि.
समीचीनं भगिनि. हा, अन्य कोऽपि? वेणुगोपाल महोदय वदतु.
यदा अहं पुस्तकं क्रीणिष्यामि तदा अहं पठिष्यामि.
तत्र क्रेष्यामि इति रूपम् इति मन्ये.
क्रेष्यामि. अस्तु,
धन्यवादः. सम्यक् अस्ति महोदय, वाक्यं सम्यक् अस्ति. भानुचैतन्य महोदय.
यदा यूयं सर्वे आश्रमम् आगच्छन्ति तदा अहं
यूयं सर्वे यूयम् इति अस्ति
आगच्छत्.
यदा भवन्तः सर्वे आश्रमम् आगच्छन्ति तदा सम्यक् सुष्ठु भोजनं परिवेशयामि.
अस्तु, धन्यवादः महोदय.
धन्यवादः महोदय.
सर्वे आगच्छामि.
आगच्छन्तु सर्वे.
अस्तु
महोदय,
धन्यवादः
महोदय. भवतः आश्रमः कुत्र अस्ति?
भानुचैतन्य महोदय.
विशाखपट्टणं नगरे.
धन्यवादः.
रमाबाई भगिनी वक्तुम् इच्छति वा?
यदा मम सही आगमिष्यति तदा अहम् आपणं गमिष्यामि.
अस्तु भगिनि, समीचीनं। हा, कः न उक्तवान्? अन्य कोऽपि वक्तुम् इच्छति वा?
अहं
वदतु।
यदा मम पौत्री मम गृहम् गृहमागच्छति तदा अहं बहु सन्तुष्टा भवति
अहं बहु सन्तुष्टा भवामि
सारि
अहं बहु सन्तुष्टा भवामि तत्र स्त्रीलिङ्गे सन्तुष्टः इति अस्ति, पुल्लिङ्गे सन्तुष्टः इति अस्ति।
सन्तुष्टः
अतः भवती वदति चेत् अहं सन्तुष्टा भवामि, अहं तत्र पुल्लिङ्गे भवति अहं सन्तुष्टः भवामि, किन्तु भवती वदति चेत् अहं सन्तुष्टा भवामि इति रूपं भवति।
सन्तुष्टा भवामि
यदा, इदानीं पूर्णवाक्यं वदतु भगिनि तत्र।
यदा मम पौत्री मम गृहम् आगच्छति तदा अहं बहु सन्तुष्टा भवामि
समीचीनं भगिनि, समीचीनम्। अस्तु, इदानीं तत्र यदा तदा रूपमपि वयं कृतवन्तः, अद्य आरभ्य इति तस्य अपि किञ्चित् अभ्यासः कृतवन्तः, तः पर्यन्तम् इति तस्य अपि अभ्यासः अद्य कृतवन्तः। तत्र यदि तर्हि अपि यदा तदा समानम् इव सन्ति किन्तु समानः नास्ति, अतः अग्रिमवर्गे अहं पृच्छामि सर्वान् पृच्छामि, यदि तर्हि प्रयोगः अस्ति, यदा तदापि प्रयोगः अस्ति, तयोः मध्ये कः भेदः। अतः गृहपाठम् अहं प्रेषयामि, किन्तु एतत् चिन्तयन्तु, यदि तर्हि कोऽपि वाक्यमस्ति तत्र, यदि तर्हि अस्ति तत्र यदा तदा स्थापयितुं शक्नुमः न वा, सर्वदा स्थापयितुं शक्नुमः अथवा कदापि न कर्तुं शक्नुमः अथवा कुत्र कर्तुं शक्नुमः कुत्र न कर्तुं शक्नुमः इति किञ्चित् चिन्तयन्तु, तत्र उदाहरणानि पश्यन्तु, किञ्चित् चिन्तयन्तु, यदि तर्हि अपि यदा तदा तयोः मध्ये कः भेदः इति। अस्तु, अद्य किमपि टेक्नालजि इश्यूस् न आसीत्, अतः ध्वनिमुद्रणं तु भवति, तद् अपि गृहपाठम् अहम् ईमेल् द्वारा प्रेषयामि। अस्तु, यदि अन्य कोऽपि प्रश्नः नास्ति चेत् विरमामः। अस्तु,
धन्यवादः,
सर्वेभ्यो नमस्कारः, अग्रिमसप्ताहे मिलामः। नमस्कारः,
धन्यवादः,
धन्यवादः, नमस्कारः महोदय।